एस रेडियो नेपाल सम्प्रति समाचार श्रीयन्ताम प्रवाचक चन्द्रकान्त पौडेल नेपाली कांग्रेस दलेन चतुर्दश महाधिवेशनस्य अन्तर्गतम् नवीन नेतृत्वस्य चयनाय निर्वाचन कार्यक्रम सार्वजनीकृतो वर्तते। एतदनुसारेण नेतृत्वस्य चयनाय एतन्मासस्य 37 दिवसे मतदानम् भविता। कांग्रेस दलस्य केन्द्रीय निर्वाचन समितिः अनुसारेण महाधिवेशन प्रतिनिधीनाम् अन्तिम नामावल्याः प्रकाशनम् श्वः 34 दिवसे, पूर्वाह्नस्य 10 प्रत्याशिनाम् मनोनयन पञ्जीकरणम् च परश्वः 25 दिवसे, पूर्वाह्नस्य 10 सायं 5 यावत् भवितारः। सत्वज्ञापन विरोधनयोः समयः 25 दिवसे सायं 7 रात्रौ 9 यावत् निर्धारितो वर्तते। प्रत्याशिनां प्रथम नामावल्याः प्रकाशनं तस्मिन्नेव दिवसे रात्रौ 9 यावत् भविता। मनोनयन पत्र प्रत्यावर्तनाय एतन्मासस्य 26 दिवसे, पूर्वाह्नस्य 11 यावत् समयः निर्धारितो वर्तते। तदनन्तरं प्रत्याशिनाम् अन्तिम नामावलिं प्रकाश्य एतन्मासस्य 27 दिवसे प्रातः 8 मतदानस्य कार्यक्रमः निर्धारितोऽस्तीति निर्वाचन समितेः संयोजकेन गोपालकृष्ण घिमिरे भिदेन ह्यः प्रकाशितायां सूचनायाम् उल्लिखितं वर्तते। निर्वाचनस्य सम्पन्नताम् अनु सभापतिपदस्य मतगणना तत्कालमेव प्रारप्स्यते। निर्वाचन सम्बद्धाः सर्वे कार्यक्रमाः राष्ट्रिय सभागृहे भविष्यन्तीति निर्वाचन समितिः ज्ञापयति। अत्रान्तरे नेपाली कांग्रेस दलस्य केन्द्रीय निर्वाचन समित्या दलस्य चतुर्दश महाधिवेशनाय षट्सूत्रीय आचार संहिता क्रियान्विता वर्तते। निर्वाचन समितेः संयोजकेन गोपालकृष्ण घिमिरे विधेन यः प्रकाशितायाः आचार संहितायाः अनुसारेण प्रकाशितायाः प्रचार प्रसाराय परिचायकपत्रम् सामान्यानुरोधपत्रम् च वितर्तुम् शक्येते परम् कस्यापि वैयक्तिकचरित्रे लाञ्छनत्वेन प्रचार प्रसार कार्यम् निषिद्धम् वर्तते। एवमेव भृगुटीमण्डपस्थितम् महाधिवेशनस्थलम् परितः 500 मीटरमितक्षेत्रस्य अभ्यन्तरे निर्वाचनेन सह सम्बद्धायाः कथम् विधायाः अपि प्रचार सामग्र्यः स्थापनम् निषिद्धम् वर्तते। मतदानस्थले प्रवेशनक्रमे प्रतिनिधीनां कृते चलभाषोपकरणं निषिद्धमस्तीति आचार संहितायाम् उल्लिखितं वर्तते। नेपाली कांग्रेस दलस्य चतुर्दश महाधिवेशनस्य कृते दलस्य अभ्यन्तरे नेतारः स्वस्व समूहस्य प्रत्याशिनां निर्धारणाय विमर्शने संलग्नाः सन्ति। संस्थापनपक्षात् दलस्य सभापतिः प्रधानमन्त्री च शेरबहादुर देउवा एव पुनः सभापतेः प्रत्याशी भविष्यतीति निश्चितमस्ति। पदाधिकारिणां सदस्यानां च कृते प्रत्याशिनो निश्चिताः न सन्ति। संस्थापनपक्षात् पदाधिकारिणां कृते प्रत्याशिनां निर्धारणाय यः उपविष्टेन उपवेशेन प्रत्याशिनो निर्धारयितुं न शक्तम्। तदनु संस्थापनपक्षात् केन्द्रीय सदस्यपदेषु प्रत्याशितायाः पदानेच्छुकानां जनानां सूचीं निर्मातुं सम्बद्धपदेशस्य नेतृभ्यो दायित्वं प्रदत्तं वर्तते। प्रदत्त दायित्ववद्भिः नेतृभिः प्रदेशसभापतिभिः सदस्यपदस्य आकांक्षिभिश्च सह विमृश्य सूची निर्मातव्यास्ति। एवमेव संस्थापनेतरपक्षात् सभापतिपदाय संयुक्त प्रत्याशिनो निर्धारणाय विमर्शनम् परामर्शनञ्च प्रचलति सत्यपि किमपि निर्णीतम् नास्तीति नेतृभिः ज्ञापितम् वर्तते। संस्थापनेतरपक्षात् सभापतिना सहितेषु पदाधिकारिषु सदस्येषु च के प्रत्याशिनो भवन्तीति विषये निश्चेतुम् विमर्शनम् विधीयमानमस्तीत्यतः शीघ्रम् निर्णयम् प्राप्स्यते इति नेपाली कांग्रेस दलस्य नेता बद्री पाण्डे अज्ञापयत्। नेपाली कांग्रेस दलेन चतुर्दश महाधिवेशनाय महाधिवेशन प्रतिनिधीनां प्रारम्भिक नामावली सार्वजनीकृता वर्तते। कांग्रेस दलेन केन्द्रीय निर्वाचन समितौ प्राप्तानां 1,049,137 च महाधिवेशन प्रतिनिधीनां प्रारम्भिक नामावली दलस्य वैद्युत सूचना सञ्जालस्य माध्यमेन सार्वजनीकृतास्ति। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य समितेः उपवेशः अद्य वसति। ललितपुरस्य सानेपावर्तिनी दलस्य केन्द्रीय कार्यालये अद्य पूर्वाह्नस्य 4:30 उपविश्यमाने उपवेशे उपस्थिते केन्द्रीय कार्य समितेः पदाधिकारिणः केन्द्रीय सदस्याः आमन्त्रित केन्द्रीय सदस्याश्च अनुरुद्धाः सन्ति। दल कार्यालयस्य मुख्य सचिवेन कृष्णप्रसाद पौडेलेन यः प्रकाशितायां विज्ञप्तौ उल्लिखितं वर्तते। राष्ट्रपतिः विद्यादेवी भण्डारी कथयति 270,200 वैक्रमाब्दस्य भूकम्पात् क्षतिग्रस्तानां सम्पदां पुनर्निर्माणे प्राप्ता उपलब्धिः भविष्यस्य कृतेऽपि अनुकरणीया अस्ति। राष्ट्रिय पुनर्निर्माण प्राधिकरणेन पुनर्निर्माणात् सफलतां प्रति इति समागोष्ठेन सह ह्यः आयोजिते पुनर्निर्माण सम्बद्धे अन्ताराष्ट्रिय सम्मेलने राष्ट्रपतिः भण्डारी अवदत् क्षतिग्रस्तानां पूर्वाधाराणां संरचनानां च निर्माणे नेपालः दृढता संकल्पयोः पूरणे सफल संवृत्त वर्तते। सम्मेलने परराष्ट्रमन्त्री डॉ नारायण खड्गा अगदत् विपद अनन्तरं त्रासपूर्णस्य मानसिकस्य च प्रभावस्य अवस्थायामपि पुनर्निर्माणे प्राप्ता उपलब्धिः सहकार्यं शिक्षणं च महत्वपूर्णानि सन्ति। सम्मेलने अर्थमन्त्री जनार्दन शर्मा अवोचत् भूकम्पस्य अनन्तरं क्षतिग्रस्तानाम् ऐतिहासिकानां सांस्कृतिकीनां च ऐतिहासिकीनां सांस्कृतिकीनां च सम्पदां पुनर्निर्माणं 90% सम्पन्नं विहितमस्ति। अवशिष्ट संरचनानां च पुनर्निर्माणं प्राथमिकतायां संस्थाप्य सम्पन्नं विधास्यते। उपराष्ट्रपतिः नन्दबहादुर पुन गदति मानवाधिकाराणां रक्षायै सर्वैः स्वस्य क्षेत्रात् भूमिका निर्वोढव्या। त्रिसप्ततितमान्तरराष्ट्रिय मानवाधिकार दिवसस्य अवसरे त्रयोदशीं मानवाधिकार महामेलां ह्यः काष्ठमण्डपे उद्घाटयन् उपराष्ट्रपति पुन अगदत् शान्तिप्रक्रियायाः निर्णयनस्य विषये विश्वस्य ध्यानं नेपालं प्रति आकृष्यमानमस्तीति हेतुः सर्वैः मानवाधिकारकर्मिभिः विशेषमिन् ध्यानं देयम्। उपराष्ट्रपतिः पुन अवोचत् मानवाधिकार महासन्धिना भोजनावास वसन स्वास्थ्य शिक्षया सह स्वतन्त्रतापूर्वकं जीवनयापनस्य रक्षा एव मानवाधिकाराः सन्तीति निश्चिताः सन्तोऽपि स्वास्थ्यसेवां शिक्षां च पूर्णरूपेण निःशुल्कं कर्तुं शक्तं नास्ति। सर्वकारेण 12-18 वर्षाणां वयसमूहस्य व्यक्तिभ्यः कोरोना प्रतिरोधि टीकाकरणम् आदातुं पूर्वकार्यं विहितमस्ति। स्वास्थ्य जनसंख्या मन्त्रालयस्य यस्तन संचारक संक्षेप कार्यक्रमे डॉ विवेक कुमार लालः आगामिनां कतिचित् दिनानाम् अभ्यन्तरे आराष्ट्रं 12-18 वर्षाणां वयस्समूहस्य जनानां समावेशनत्वेन फाइजर मोडर्ना टीकाकरणयोः आधानस्य अभियानं सञ्चालयितुं पूर्वकार्यं विहितमिति अज्ञापयत्। एवमेव गर्भवती महिलानां कृते गर्भस्य प्रथममासत्रयस्य अनन्तरं टीकाकरणाधानत्वेन अभियानं सञ्चालयिष्यते इति च डॉ लालः अज्ञापयत्। अत्रान्तरे ह्यः आराष्ट्रं 80+102 जनेषु कोरोना संक्रमणं पुष्टीभूतमस्तीति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। ह्यः आराष्ट्रं अतिरिक्तः 67+103 जनाः कोरोना संक्रमणात् मुक्ताः सन्ति। ह्यः कोरोना संक्रमणेन आराष्ट्रं जनद्वयं मृतम्। एतदनु ह्यस्तनावधि नेपाले संक्रमणेन मृतानां जनानां समग्र संख्या 11,545 प्राप्तिति मन्त्रालयेन ज्ञापितं वर्तते। ओमिक्रोन नाम्नः कोरोना विषाणोः पुष्टिभवनम् अनु भारतेन सह सम्पृक्त सीमासु सुदूरपश्चिम प्रदेशस्य कैलाली जनपद सहितेषु सर्वेषु क्षेत्रेषु सुरक्षा व्यवस्था कठोरा विहिता वर्तते।